नमस्सर्वेभ्यः अद्य विभक्तिवर्गे ऊनविंशः पाठः मे मासस्य सप्तमः दिनाङ्कः रामो राजमणिः सदा विजयते रामं रमेशं भजे रामेणाभिहता निशाचरचमूः रामाय तस्मै नमः रामान्नास्ति परायणं परतरं रामस्य दासोऽस्म्यहं रामे चित्तलयः सदा भवतु मे भो राम मामुद्धर गुरुरेव गतिः गुरुमेव भजे गुरुणैव सहास्मि नमो गुरवे न गुरोः परमं शिशुरस्मि गुरोः मतिरस्ति गुरौ मम पाहि गुरो पञ्चमी विभक्तेः अध्ययनं कुर्वन्तः स्मः क्षम्यतां द लास्ट् वीक् ऐ थिङ्क् देयर्स् अ प्रोब्लम् वित् मै इण्टर्नेट् कनेक्षन् एण्ड् अ वीक् बिफोर् दट् वी द क्लास् गोट् कट् इन् बिट्वीन् बिकास् आफ् सम् पवर् इश्यूस् बिकास् ऐ मीन् ऐ लास्ट् पवर् सडन्ली एण्ड् ऐ कुडन्ट् रीकनेक्ट् सो लेट्स् होप् दिस् क्लास् goes without being interrupted. Panchami vibhaktihi. Apadanam vachakat panchami vibhaktihi bhavati. Apadanam namakim ityatra trividham apadanam asmabhihi drishtam. Prathamam apadanam bhavati vibhagasya avadhihi. Yatra vibhagaha separation bhavati. तत्र विभागस्य अवधिः द सोर्स् आफ् सेपरेशन् द पॉइंट फ्रम् विच् समथिङ्ग् गेट् सेपरेटेड् इस् काल्ड् अपादान वृक्षात् पतति पर्णम् इत्यत्र वृक्षपर्णयोः विभागे पर्णं पतति कस्मात् वृक्षात् पर्णं पतति ग्रामात् आगच्छति शालायाः आनयति इत्यादिषु पञ्चमी विभक्तिः भवति द्वितीयम् अपादानं भवति भयस्य अथवा रक्षणस्य कारणं यत्र बिभेति भी इत्यर्थकानां धातूनां प्रयोगः अथवा रक्षति इत्यर्थकानां धातूनां प्रयोगः तत्र भयमूलं द सोर्स् आफ् फियर् तस्य अपादानसंज्ञा भवति अतः पञ्चमी विभक्तौ प्रयोगः दृश्यते व्याघ्रात् भीतः परीक्षायाः त्रस्तः सो भीतः त्रस्तः इति समानार्थकम् चोरात् रक्षति दुष्टात् त्रायते रक्षति त्रायते इति रक्षणार्थकम् अत्र सर्वत्र भयस्य कारणं व्याघ्रः परीक्षा चोरः दुष्टः इत्यादीनाम् अपादानसंज्ञा अस्ति इत्यतः पञ्चमी विभक्तौ प्रयोगः भवति तृतीयम् अपादानम् अस्ति नद्याः प्रभवः द सोर्स् आफ् अ रिवर् आर् द प्लेस् वेर् रिवर् इस् सीन् फस्ट् प्रथमं प्रकाशस्थानम् इत्युच्यते प्रभवः नद्याः प्रभवः यः अस्ति तस्मात् पञ्चमी विभक्तिः भवति यथा हिमालयात् गङ्गा प्रभवति Ganga originates from the Himalayas. Evam Bhagamandalat Kaveri Pravahati Ityadishu. Panchami Vibhaktehe Rupani Api Asmabhihi Drishtani Balat Balabhyam Balebhyah Mitrat Mitrabhyam Mitrebhyah Pumlinge Napumsakalinge Cha Sadrisham Rupam बालिकायाः बालिकाभ्यां बालिकाभ्यः इति आकारान्तस्त्रीलिङ्गानां नार्याः नारीभ्यां नारीभ्यः इति ईकारान्तस्त्रीलिङ्गानां रूपाणि भवन्ति अद्य सर्वनाम्नां पञ्चमीविभक्तिरूपाणि पश्यामः तस्मात् ताभ्यां तेभ्यः पुनः पुल्लिंगे नपुंसकलिंगे च समानं रूपं तस्मात् ताभ्यां तेभ्यः स्त्रीलिंगे तु तस्याः ताभ्यां ताभ्यः एवं एतत् शब्दस्य एतस्मात् एताभ्यां एतेभ्यः एतस्याः एताभ्यां एताभ्यः अस्मत् शब्दस्य अहम् तस्य मत् आवाभ्याम् अस्मत् त्वत् युवाभ्याम् युष्मत् इति च रूपम् तस्मात् ताभ्याम् तेभ्यः तस्याः ताभ्याम् ताभ्यः एतस्मात् एताभ्याम् एतेभ्यः एतस्याः एताभ्याम् एताभ्यः मत् आवाभ्याम् अस्मत् त्वत् युवाभ्याम् युष्मत् इत्येवं सर्वनाम्नां रूपाणि भवन्ति. सर्वनाम्नां पञ्चमी विभक्तिरूपाणि वक्तव्यानि. यथा सः इत्यस्ति तस्मात् स्वीकरोति टेक्स् फ्रम् हिम्. एवम् एतेषां सर्वनाम्नां पञ्चमी विभक्तिरूपाणि उपयुज्य स्वीकरोति इत्यनेन वाक्यं रचनीयम्. People who would like to try. Lakshmi.
Yes, one. Tasmat Svikaroti. Tasyah Svikaroti. Mat. Mat.
स्वीकरोति.
तस्याः स्वीकरोति. त्वत् स्वीकरोति. एतस्मात् स्वीकरोति.
सम्यक्. एतस्मात् स्वीकरोति. तस्मात् एतस्याः मत् तस्याः त्वत् एतस्मात् इति एकवचने रूपाणि. एवं द्विवचने श्रीधर महोदय.
नमस्कारः.
हा,
ताभ्यां स्वीकरोति. एताभ्यां स्वीकरोति. आवाभ्यां स्वीकरोति. आभ्यां स्वीकरोति. युवाभ्यां स्वीकरोति. एताभ्यां स्वीकरोति.
हा, सम्यक्. एताभ्यां स्वीकरोति. ताभ्याम् एताभ्याम् आवाभ्यां ताभ्यां युवाभ्याम् एताभ्याम्. बहुवचने कोऽपि प्रयत्नं कर्तुम् इच्छति? मलकोण्डय्य महोदय.
हरि ओम्. तेभ्यः स्वीकरोति. एतेभ्यः स्वीकरोति. आवाभ्यां स्वीकरोति.
अस्मत्
अस्मत् स्वीकरोति. ताभ्यां स्वीकरोति.
ताभ्यः
ताभ्यः स्वीकरोति. युवाभ्यां यस्मत् स्वीकरोति. एताभ्यां स्वीकरोति.
एतेभ्यः बहुवचनम्.
एतेभ्यः
तेभ्यः एताभ्यः अस्मत् ताभ्यः युष्मत् एतेभ्यः इति पञ्चमी विभक्ति रूपाणि. एतत्तु स्वीकरोति इति विभागस्य अवधिः. सो वेन् यु टेक् समथिङ्ग् फ्रम् समबडी there is the separation. Say, tasmat pustakam svikaroti. Pustakasya tasya cha sambandhaha nashtaha arthat vibhagaha. Ataha vibhagasya avadhihi apadanam bhavati. Ityataha panchami vibhaktihi bhavati. Anyaihi padaihi saha yatha bhitaha. Afraid of him. Afraid of her. Ityarthe api panchami vibhaktehe hai prayogaha bhavati. So this is the second kind of apadana that we studied. Okay. So anybody would like to try? The forms are the same. Just the kriyapadam is different. Padmanabhan Mahodaya.
Tasmat Bhitaha. Yatasyaha Bhitaha. Mat Bhitaha. Then Tasyaha Bhitaha. Tat Bhitaha. Then Yatasmat Bhitaha.
Sami. Divachane? Anybody else? Rama? Bhagini?
Namaste.
Pabhyam
Bhitaha. एताभ्यां भीतः आभ्यां भीतः ए ताभ्यां भीतः Abhyam Bhitaha
Yuvabhyam
Yuvabhyam Bhitaha Etabhyam Bhitaha
Samyak Etabhyam Bhitaha. So Tabhyam, Etabhyam, Avabhyam, Tabhyam, Yuvabhyam, Etabhyam. Rao Mahode. Bahuvachane, and you have to unmute yourself.
Can you hear me?
Shruyate.
Okay. Tebhyah Bhitaha. Etebhyah Bhitaha.
Etabhyah.
Etabhyah Bhitaha. Mat Bhitaha. Tab. Kya bhitaha? Yushmat bhitaha? Eta bhya bhitaha?
Ete bhya bhitaha.
Ete bhya bhitaha.
So te bhya, eta bhya, asmat, ta bhya, yushmat, ete bhya. Iti bahuvachane rupani. So evameva prabhavati ityasya prayoge api panchami vibhakto samanani rupani bhavanti. So we'll skip this because it's exactly the same. Adya upapada panchami vibhaktehe adhyayanasya prarambham kurmaha. Upapada panchami. So panchami vibhakti in association with specific words. Okay, so gives there is panchami bhakti to be used. So one of the most common words is bahihi, outside. Bahihi ityasya prayoge panchami vibhakti bhavati. Grihat bahihi udyanam asti. So there is a garden outside the house. So grihat bahihi. Bahihi iti avyayam. Okay, so it's an avyaya which does not change its forms. The word associated with bahihi is in panchami. Shalayah bahihi kridanganam asti. So there is a playground outside the school. Jalat bahihi meenaha na jivati. So the fish will not survive outside water. Jalat bahihi. Evam bahihi ityasya prayoge tena yuktam padam, tena anvitam padam, panchami vibhaktau bhavati. Atra bahihi ityetadupayujya vakyam rachaniyam. Yatha gramat bahihi nadi pravahati. So a river flows outside the village. Please raise your hands, those who would like to try. Sharma Mohanay.
Dwarat bahihi bhataha asti.
Dwarat bahihi bhataha asti. So there is a soldier outside the door.
Devalayat bahihi prakara asti.
Devalayat bahihi prakara asti. Dhanyavadaha. So there is a compound. Prakara is a compound outside the temple. Danya.
Prakoshtat bahihi janaha upavishanti.
Prakoshtat bahihi janaha upavishanti. Prakoshtaha is a room. So people are sitting outside the room.
Grihat bahihi.
Grihat bahihi shunakaha asti. So there is a dog outside the house.
Sthanakat bahihi yanam tishtati.
Sthanakat bahihi yanam tishtati. The vehicle is standing outside the stand. The sthanakam is the stop, the bus stand or the station. So outside the station. Dhanyavadaha. Next, Shri Priya.
Ayodhya yah bahihi sarayu nadi pravahati. Kashyah bahihi ganga pravahati. Mathura yah bahihi yamuna pravahati.
Shubha. You have to unmute yourself. Shubha. Cannot hear you. You have to click on your microphone symbol to unmute yourself. Rama.
Namaste. Dharmapuryaha bahihi godavari pravahati.
Samyak. So vastutah strilingeshu panchami vibhaktau shashti vibhaktau cha rupam samanam ekavachane atah bhedaha na drishyate kintu pullinge panchami shashchoho bhedaha asti. So we feel the difference more when we are using pullinga. Okay. So that is the first case of upapada panchami where we use bahihi. When we use the word bahihi, the associated word is in panchami vibhakti. Idanim anyat anyam prayogam pashyamaha. Purva para ityetayoho prayoge panchami vibhaktihi. So purva, before or earlier, para is later or afterwards. So ubhayoho prayoge, from what? Earlier than or later than? Before what or after what? So tatra panchami vibhaktihi bhavati. Yatha chaitraha vaishakhat purvaha. So chaitra, the month of chaitra is before vaishakha. So chaitraha vaishakhat purvaha. Ramaha lakshmanat purvaha. So Rama was born. Rama is earlier to Lakshmana. So he was born before. Ityartha. February masaha January masat paraha. So paraha is later. Snanat purvam dantadhavanam karoti. So atra. So here in purvaha paraha it is used as an adjective to the noun. Here you are just using it as purvam. Snanat purvam dantadhavanam karoti. Bhojanat param nidrati. So before, after. Ityarthe api purva para ityetayoho prayogaha bhavati. Atra sarvatra sambaddham padam panchami vibhaktau bhavati. Atra abhyasam shyamaha. Atra masaha santi. Kaha kasmat purvaha iti vaktavyam. Malakondaya mahodaya.
Hare Om. Chaitraha purvat asvayujaha.
No. Chaitra is the first one. Chaitra Vaishakha Jyeshtha. Chaitraha Vaishakhat Purvaha.
Oh, left side. Chaitraha Vaishakhat Purvaha. Jyeshtha.
Vaishakha.
Oh, Vaishakha Jyeshtha Purvaha. Jyeshtha Ashanat Purvaha. Ashanaha Sravanat Purvaha. Sravanaha Bhadrapadat Purvaha. Bhadrapadaha Asvayujat Purvaha.
Thank you.
Asvayujaha.
Dhanyavad.
Yeah, Dhanyavad.
Rav Mahan.
Kartikah
Ashvayujat
Ashvayujah Bhadrapadat.
No, Purvaha Iteva Vadatu Anantaram Paraha. Purvaha Ashvayujah Kartikat Purvaha.
Okay, Ashvayujah Kartikat Purvaha. Kartikah Margashirshat Purvaha. Margashirshaha Pushyat Purvaha. Pushyaha Maghat Purvaha. Maghaha Phalgunanat Purvaha. Phalgunat Purvaha. Chaitraha Phalgunat Purvaha.
Chaitraha Phalgunaha Chaitrat Purvaha. Agrima Chaitra.
Falguna Chaitra Purvaha.
Okay. So next, Paraha Ityasetha Samanam. Vaishakaha Chaitrat Paraha. Jyeshtaha and so on. Okay. So, Paul?
Chaitrah Vaishakat Param.
No,
Paraha.
Vaishakah Chaitrat Paraha. Vaishakha is after Chaitra.
Oh, okay. We're doing the same as we did in the same order then. Okay. So, okay. Vaishakah Chaitrat Paraha. Jyeshthah Vaishakat Paraha. Ashadah Jyeshthat Paraha. Shravanah Ashadat Purvaha
Paraha.
Paraha. And Bhadrapadah Shravanat Paraha. Ashvayujah Bhadrapadat Paraha.
Thank you. Next. Lakshmi.
Yes. Ashvayujah Bhadrapadat Paraha. Kartikah Ashvayujirat Paraha. Margashishah Kartikat Paraha. Pushyah Margashishat Paraha. Magah Pushyat Paraha. Falgunah Magat Paraha.
Chaitrah
Falgunat. Falgunat Paraha.
Yes. Danim aham masadvayam vadami tadadhritya vakyadvayam rachaniyam yatha jyeshthah shravanah ityasti. So jyeshthah shravanat purvah, shravanah jyeshthat parah. Okay. So dvedha api vaktum shakyate. Jyeshthah shravanat purvah, shravanah jyeshthat parah. Evam masadvaye ukte tayoho paraspara sambandhah vakyadvayena vaktavyah. Shridhar mahodaya. Shravanah Kartikah.
Shravanah Kartikat Purvah. Kartikah Shravanat Parah.
Ha. Sammi. Maghah Vaishakah.
Vaishakah Magat Purvah. Magah Vaishakha Parah.
Samyak. Dhanyada. So it can be used in both ways. See, when you're talking, there's a question which asks, is it to the one which is immediately earlier or afterwards, or can it be used? So when we are talking of the series, yes, I mean it comes one after the other. But the words Purva and Para can also be used to compare just two things. So you just have two separate things, which of them is earlier and which of them is later. So even in that context, we can use the words Purva and Para. Okay. Agrimam Abhyasam Pashyamaha. Ekaha Balakaha Asti. Saha Etani Karyani Anena Kramena Karoti. So Adav Prataha Uttanam Anantaram Dantadhavanam Anantaram Snanam Deva Pujanam Alpaharaha Shalagamanam Ityevam Kramena Karyani Karoti. Utaha Balaha Uttishthati Uttanat Param Kim Karoti. Tasmat Param Kim Karoti. Iti Adav Parashabdam Upayujya Vakyani Rachayamaha. Sorry. Rajiv Mahodaya.
Balakaha Uttanat Dantadavanam Karoti.
Uttanat Param.
Uttanat Param Dantadavanam Karoti. Balakaha Dantadavana Dantadavanat Param Snanam Karoti. Snanat Param Deva Pujanam Karoti. Deva Pujanat Param Alpaharaha Svikaroti.
Alpaharam.
Alpaharam Svikaroti. Alpaharat Param Shalam Gachati.
Shalam Gachati. Samyak. Idanim Viparita Kramena. Shala Gamanat Purvam Kim Karoti. Iti Purva Shabdam Upayujya Vadamaha. Rao Mahana.
Balakaha Shala Gamanat Purvam Alpaharam Svikaroti. Balakaha Alpaharat Purvam Deva Pujanam Karoti. Balakaha Deva Pujanat Purvam Snanam Karoti. Balakaha Snanat Purvam Dantadhavanam Karoti. Balakaha Dantadhavanat Purvam Uttishtati.
Uttishtati. Samyak. Evameva Sayankale Kanichana Karyani Santi Tanyapi Tenaiva Adau Param Iti Upayujya Kathayamaha Anantaram Purva Shabdasya. Shridhar Mahore.
Kridam Pradamam Purvam, right?
Param. Param.
Param. Kridanat Param. Balakaha Kridanat Param Patanam Karoti.
Pathati. Samyak.
Balakaha Patanat Param Griha Karyasya Lekanam Karoti.
Or Griha Karyam Likhati.
Griha Karyasya Lekanat Param Stotra Kathanam Karoti. Stotra Kathanat Param Bhojanam Karoti. Bhojanam Param Nidram Karoti.
Samyak. Idanim Purva Shabdam Upayujya Malakondaya.
Hari Om. Danta Davanat Purvam.
No.
Balakaha.
Adhitiya Khande Nidra Yaharam.
Balakaha Nidra Yaha Purvam Bhojanam Karoti. Balakaha Bhojanat Purvam Stotra Kadanam Karoti. Balakaha Stotra Kadanat Purvam Gruhakaryasya Lekanam Karoti. Gruhakaryasya Lekanat Purvam Patati. Balakaha Patanat Purvam Kredati.
Samyak. Ahamidanim prashnam prachami yatha balakaha kada snanam karoti. Dvedha uttaram vaktum shakyate. Dantadhavanat param snanam karoti. Deva pujanat purvam snanam karoti. Evam dvedha uttaram vaktum shakyate. Tatha prashnasya uttaram vaktavyam. Paul, would you like to try? Others who would like to try, please raise your hand so that I can unmute you.
I'm sorry, which words am I using, or do I just pick any?
No, yes, I'll let you. So, balakaha kada pathati.
Oh,
Oh, okay. Balakaha. Kridanat. Patanam patati.
Param. Kridanat param patati.
Not param patanam patati. Grihakaryasya lekanat patanam
purvam
purvam patanam patati.
Patanam karoti or patati. You can put it both ways. So balaka. Yes. Sorry?
Not patanam. Just say patanam karoti or patati. Either one, no?
Yes.
Okay.
So patati or patanam karoti. So balakaha kridanat param patati or grihagaryasya lekanat purvam patati. Balakaha kada dantadhavanam karoti. Paul, for you.
Yeah, okay. Balakaha uttanam uttanat param dantadavanam karoti. Balakaha snanat purvam dantadhavanam karoti.
Samyak. Thank you. So anybody else would like to try? Please raise your hands. Others, those who have not tried so far, please. Rama? Balakaha kada stotram kathayati. Na shruyate, louder please.
Lekanat param.
Yes, so it was very faint. Grihakaryasya lekanat param stotram kathayati. Bhojanat purvam stotram kathayati. Okay. Evam purvam param ityetaihi yoge panchami vibhaktihi bhavati. Okay. So agrimam pashyamaha. Rute iti shabdha asti. Vina ityarthe eva. Without ityarthe. Rute iti shabdha. Tasya shabdasya prayoge panchami vibhaktihi bhavati. Vina ityasya prayoge api panchami vibhaktihi bhavati. So vina ityasya prayoge etavata eva vibhakti dvayam drashtam. Dvitiya, tritiya, panchami. Iti tisraha vibhaktayaha bhavanti. So with vina we can use three vibhaktis. Dvitiya, tritiya and panchami. Ramam vina, ramena vina, ramat vina. Kintu rute ityasya prayoge panchami vibhaktihi eva bhavati. So it's only panchami which we use with rute. The meaning is the same. Jalad rute meenaha najivanti. So fish do not live or survive without water. Jaladrute. Ramadrute kaharakshati. Who will protect other than Rama or without Rama? Bhagavatyaharate sharanam nasti. So there is no other refuge other than the goddess Bhagavati. So atraiva vina ityasya api prayogah bhavitum arhati. Jaladvina meenah na jeevanti. Ramadvina kaharakshati. Bhagavatyaha vina sharanam nasti. Mathauktam vina ityasya jalam vina meenah na jeevanti. Jalena vina jalatvina. Evam ramam vina ramena vina ramadvina. Bhagavatim vina bhagavatya vina bhagavatyah vina iti tredha prayogah bhavitum arhati vina iti shabdasya prayoge. Nanim rute ityasya prayogam kurmaha adau anantaram vina ityasya api prayogasya abhyasam kurmaha adau rute ityasya. Tadapuram prashnaha, is rute also an avyaya? Yes, rute ityetadapi avyayameva. Yatha idanim ramaha rakshakaha ityasti chet, ramadrute rakshakaha nasti. So, ekam vina anyan nasti ityarthe prayogaha athava vakyam rachaniyam. Please volunteer. Sharada.
Namaste. Vyakaranat rite shabdajnanam nasti.
Vyakaranat rite shabdajnanam nasti.
Nasti. Jnanat rite kaivalyam nasti.
Jnanat rite kaivalyam nasti.
Dhanat rite jivanam nasti.
Dhanyavadaha. So next, Malakondaya Mahalaya.
Pramat rite siddhihi nasti. Vyayamat rite arogyam nasti. Prakashat rute chaya nasti.
Samyak. Next. Sridhar.
Vidyayaha rute vivekaha nasti. Dayayaha rute dharmaha nasti. Dharanayaha rute dhyanam nasti.
Samyak. Next. Rama.
Namaste. Parvati. Parvatyaha rite paramaha nasti. Lakshmiyaha rite narayanaha nabhavati. Parasvatyaha rite prashna mati upayogam kartum shaknumahakim.
Katham.
Parasvatyaha rite brahma katham bhavati iti.
Shakyate. That's only the rite That word is constant, so the latter part can vary. You can even say bhavati. Sarasajarate Brahma bhavati. That is the vivaksha. So it's just... Okay. Okay. So, ek prashna asti kaivalyam ityasya kaha arthah. So, kaivalyam moksha, what we call salvation. Jnana deva hi kaivalyam iti vakyam asti. So, kaivalyam kevalasya bhavaha. So, it is more predominantly a Sankhya terminology, but commonly used for moksha. Okay. Sharma Mahodaya, kaha prashna?
Krishna,
these are
also panchami?
They are not, I mean, directly panchami, but tas pratyaya, they are ending in a tadhita pratyaya called tasil, and that pratyaya is given in the sense of panchami. So, yes, they are avyayas conveying the sense of panchami vibhakti. So, yeah, normally what we do, I mean, in the initial stages when teaching panchami, instead of teaching the panchami vibhakti forms directly, it is easier to add taha. Okay, so taha is say Bengaluru taha agachati, or Chennai taha agachati, and so on, or Vriksha taha patati, Mattaha svikaroti, Tvattaha. So it's a very convenient pratyaya. It is a tadhita pratyaya which can be added to all words to convey the sense of panchami. And once you add it, it's an avyaya. Okay? So you don't have to change the forms or anything. So it is an easy way of using panchami vibhakti, especially for beginners. Without knowing the form, if you just know, say, vyakaranataha, jnanataha, dhanataha, shramataha, vyayamataha, dharanataha, parvatitaha, Lakshmi taha, you just add the taha to the pratipadika and it will convey the sense of panchami vibhakti. Okay. So that is a useful pratyaya and more commonly in use because you don't have to know the three different forms of panchami vibhakti and for the different lingas. It doesn't change for any linga, any vachana, you just add the taha. Idanim Eteshameva Shabdanam Vina Ityasya Prayogena Vakyani Rasayamaha Vina Ityasya Prayoge Vethauktam Vifakti Trayam Bhavati Ramam Vina Rakshakahanasti Ramena Vina Rakshakahanasti Ramad Vina Rakshakahanasti Evam Atra Etesham Vakyanam Vina Ityasya Prayogam Kurmaha Vifakti Trayena Saha. Please raise your hands and volunteer. Okay. Sharada. You have to unmute yourself. You have to click on the microphone icon next to your name to unmute yourself. No? Cannot hear you. Sridhar.
Namaste. Vyakaranat vina sabda jnanam nasti. Jnanat vina kaivalyam nasti.
No. Tatraiva vibhakti trayam vyakarana dvitiya tritiya pancha.
ద్వితీయ ఓకే ఓకే వ్యాకరణం వినా శబ్దజ్ఞానం నాస్తి వ్యాకరణేన వినా శబ్దజ్ఞానం నాస్తి వ్యాకరణాత్ వినా శబ్దజ్ఞానం నాస్తి
సమ్యక్ అత్ర విద్యా
విద్యాం వినా వివేకః నాస్తి విద్యయా వినా వివేకః నాస్తి విద్యాయాః వినా వివేకః నాస్తి
సమ్యక్ ధన్యవాదాః నెక్స్ట్ మలకొండయ్య మహోదయ
హరి ఓం జ్ఞానం వినా వైకల్యం నాస్తి
కైవల్యం
జ్ఞానేన వినా అస్తు జ్ఞానం వినా కైవల్యం నాస్తి జ్ఞానేన వినా కైవల్యం నాస్తి జ్ఞానాత్ వినా కైవల్యం నాస్తి దయాం వినా ధర్మః నాస్తి దయయా వినా ధర్మః నాస్తి దయయాః వినా దయయా నాస్తి
సమ్యక్
దయయాః వినా మహ నాస్తి
సమ్యక్ పాల్ వుడ్ లైక్ టు ట్రై వన్
ధనం వినా జీవనం నాస్తి ధనాత్ వినా జీవనం నాస్తి ధనేన వినా జీవనం నాస్తి
సమ్యక్ ధారణ
ధనం వినా జ్ఞానం నాస్తి ధారణాయాః వినా జ్ఞానం నాస్తి ధారణయా వినా జ్ఞానం నాస్తి
సమ్యక్ రమ
నమస్తే శబ్దం సిద్ధిసిద్ధ భవతి శమేన వినా సిద్ధిసిద్ధి నాస్తి శమాత్ సిద్ధి న భవతి పార్వతీ వినా పరమేశ్వరః నాస్తి పార్వత్యా వినా పరమేశ్వరః న భవతి పార్వత్యాః పరమేశ్వరః న భవతి
సమ్యక్ ఎనీబడీ ఎల్స్ వుడ్ లైక్ టు ట్రై దోస్ హూ హావ్ నాట్ ట్రైడ్ సో ఫార్ ప్లీజ్ రేజ్ యువర్ హ్యాండ్స్ రావ్ మహోదయ
నమస్తే వ్యాయామం వినా ఆరోగ్యం నాస్తి వ్యాయామేన వినా ఆరోగ్యం నాస్తి వ్యాయామాత్ వినా ఆరోగ్యం నాస్తి లక్ష్మీం వినా నారాయణ నాస్తి లక్ష్మ్యా వినా నారాయణ నాస్తి
సమ్యక్ శారదా శంకర నారాయణ
नमस्ते भगिनी.
नमस्ते भगिनी.
प्रकाशं विना छाया नास्ति. प्रकाशेन विना छाया नास्ति. प्रकाशात् विना छाया नास्ति. सरस्वतीं विना ब्रह्मा नास्ति. सरस्वत्या विना ब्रह्मा नास्ति. सरस्वत्याः विना ब्रह्मा नास्ति.
सम्यक्. अद्य उपपद पञ्चमी विभक्तेः प्रयोगत्रयं दृष्टम्. बहिः इत्यस्य प्रयोगे पञ्चमी विभक्तिः भवति. पूर्वं परम् इत्येतयोः प्रयोगे पञ्चमी विभक्तिः भवति. ऋते विना इत्येतयोः प्रयोगे अपि पञ्चमी विभक्तिः भवति. अग्रिमवर्गे पञ्चमी विभक्तेः इतोपि एकं वा द्वयं वा प्रयोगं दृष्ट्वा षष्ठी विभक्तिं प्रविशामः. रामो राजमणिः सदा विजयते. रामं रमेशं भजे. रामेणाभिहता निशाचरचमूः. रामाय तस्मै नमः. रामान्नास्ति परायणं परतरं. रामस्य दासोऽस्म्यहं. रामे चित्तलयः सदा भवतु मे. भो राम मामुद्धर. गुरुरेव गतिः गुरुमेव भजे. गुरुणैव सहास्मि नमो गुरवे. न गुरोः परमं शिशुरस्मि गुरोः. मतिरस्ति गुरौ मम पाहि गुरो.